इदम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। अद्य नवदेहल्यां समनुष्ठिते द्वादशे ब्रिक्स पर्यावरणमन्त्री परिषदधिवेशने केन्द्रीय पर्यावरणमन्त्री भूपेन्द्र यादवः प्रावोचत् यत् भारतेन 75,000 2020-2030 यावत् मालिन्यविसर्जनतीव्रतायां 37%-तोऽप्यधिकं भूयान् ह्रासः समासादितः। भारतीय विशिष्ट प्रत्यभिज्ञान प्राधिकरणेन राष्ट्रव्यापी संकल्पस्य अंगत्वेन शालाच्छात्राणां 2,00,000+ अनिवार्य आधार बायोमेट्रिक कार्यं साफल्येन निर्व्यूढम्। भारतीय जनता पार्टीति दलेन उत्तर प्रदेश पंजाब गुजरात राज्येषु नूतनाः राज्यप्रभारिणः सह प्रभारिणः च नियोजिताः। प्रशासनेन राष्ट्रिय क्रीडा पुरस्काराणाम् उद्घोषणा विहिता। बैडमिंटन क्रीडायाः तीसरा जोली पुल्लेला गायत्री गोपीचंदः च अथ 15 उत्कृष्टाः क्रीडकाः सम्माननीयाय अर्जुन पुरस्काराय समभ्यर्थिताः। अपि च नीदरलैंड्स देशस्य एमस्टेलवीन नगरस्थे वैग्नर हॉकी क्रीडांगणे संजायमानायां स्पर्धायां भारतीय महिला हॉकी दलं दक्षिण अफ्रीका दलेन सह स्पर्धिशिष्ट। अथ वार्ताः विशदीकृत्य। नवदेहल्याः भारतमण्डपे ब्रिक्स राष्ट्राणां 12 पर्यावरणमन्त्रीणां शिखरसमवायः प्रावर्तत। अस्य द्विदिवसीय सम्मेलनस्य अध्यक्षतां केन्द्रीय पर्यावरण वन जलवायु परिवर्तन मन्त्री भूपेन्द्र यादवः अकरोत्। भारतस्य 26,000+ ब्रिक्स अध्यक्षतायाः मुख्य विषयः पर्यावरण सहनशीलता तथा नवोन्मेषस्य संवर्धनम् इत्यस्ति। सम्मेलनं सम्बोध्य भूपेन्द्र यादवेन मानवता प्रथम दृष्टिकोणम् अनुसृत्य नीतीनाम् उद्योग्याः जनसहभागितायाश्च एकीकृत प्रयासाः सुदृढाः कृताः।
As nation pursue their development aspirations, they are navigating an increasingly complex environmental reality. The impact of climate change, biodiversity loss and pollution, the triple planetary crisis together with growing disaster risk are affecting communities and ecosystems worldwide. These challenges are particularly significant for developing countries where environmental vulnerability is often closely intertwined with broader development priorities including poverty eradication, food security and inclusive growth.
मन्त्रिणा ज्ञापितं यत् भारतेन 75,000+2,20,000+ मालिन्य उत्सर्जिते 37%+ ह्रासः कृतः। तेन स्पष्टीकृतं यत् अध्यक्षत्वेन भारतं सर्वैः सदस्यराष्ट्रैः सह सहमति आधारितवार्तायै सदैव प्रतिबद्धं वर्तते। भारतीय विशिष्ट परिचय प्राधिकरणेन अनिवार्य बायोमेट्रिक नवीकरणाय संचालिते राष्ट्रव्यापी अभियाने काचित् महती उपलब्धिः प्राप्ता। प्राधिकरणेन देशस्य विभिन्न विद्यालयेषु 2,00,000+ छात्राणां बायोमेट्रिक नवीकरण प्रक्रिया साफल्येन सम्पूरिता। विगतवर्षस्य सितम्बर मासात् प्रारब्धे अस्मिन् विशिष्टाभियाने एतावता 650,000+ समाविष्टाः, येन 40,00,000 छात्राः विद्यालयेष्वेव स्वकीयं बायोमेट्रिक नवीकरणं कारयेयुः। इलेक्ट्रॉनिक सूचना प्रौद्योगिकी मन्त्रालयेन स्पष्टीकृतं यत् अस्य अभियानस्य साहाय्येन अनिवार्य बायोमेट्रिक सेवा साक्षात् विद्यालयस्तरे प्रापिता, येन छात्रेभ्यः एषा प्रक्रिया अतीव सरला सौविध्ययुता च संवृत्ता। मन्त्रालयेन संसूचितं यत् 5 वर्षेभ्यः अल्पवयस्कानां शिशूनां कृते केवलं जनसांख्यिकीयसूचनाः छायाचित्राणि च सङ्गृह्यन्ते, यतोहि तस्मिन् वयसि अङ्गुलीचिह्नानि नेत्रतारकसंरचना च अविकसिता भवति। अतः पञ्चमे वर्षे अथ च पुनश्च पञ्चदशे वर्षे बालकानां कृते अनिवार्य बायोमेट्रिक नवीकरणम् आवश्यकं भवति, येन तेषां बायोमेट्रिक विवरणं सर्वथा अद्यतनं तिष्ठेत्। भारतीय जनता दलस्य राष्ट्रियाध्यक्षेण नितिन नवीनेन उत्तरप्रदेश पंजाब गुजरात प्रदेशेभ्यः नूतन प्रदेश प्रभारिणः नियुक्ताः। विनोद तावड़े उत्तरप्रदेशस्य प्रभारित्वेन अथ जगदीशेश्वरभाई पटेलः सह प्रभारित्वेन नियुक्तीकृतः। डॉक्टर सतीश पूनिया पंजाब राज्यस्य प्रभारी एवं च तरुण चुगः गुजरात राज्यस्य प्रभारी पदे नियुक्तः। भारतीय जनता पार्टी इति दलेन नवदेहल्याम् अखिल भारतीय कांग्रेस समित्याः मुख्य कार्यालये स्वतंत्रता दिवस समारोहे राष्ट्रीय गीतस्य वंदे मातरम् इत्यस्य कृताम् अवमाननाम् अभिलक्ष्य कांग्रेस दलस्य तीव्रा आलोचना कृता। नवदिल्ल्यां वार्ताहरान् संबोधयन् भाजपा दलस्य प्रवक्ता रविशंकर प्रसादः अवोचत् यत् यदि कांग्रेस दलं राष्ट्रियगीतस्यापि सम्मानं नैव कर्तुं शक्नोति तर्हि तेन स्वातन्त्र्य संग्रामस्य एकमात्र संरक्षकः इति एकाधिकार प्रदर्शनं स्थगनीयम्। सः अग्रे आरोपितवान् यत् ह्यः यदा कांग्रेस अध्यक्षः मल्लिकार्जुन खड्गे गोवा राज्यं गतवान् तत्रापि दलस्य कार्यक्रमे वन्दे मातरम् गीतस्य केवलं पद्यद्वयमेव गीतम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ आन् ए आई आर् चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। झारखंड राज्यस्य गुमला जनपदे डुमरी आरक्षि केन्द्र सीमायां शासन विद्रोहिणः जे जे एम पी संघस्य पंच लक्ष पारितोषिक भूषितः उपमंडल नेता रामदेव लोहरा त्रिभिः सहचरैः सह आरक्षि बलेन निगृहीतः। गुप्तवार्ताम् आसाद्य कृतायाम् अस्याम् निग्रह क्रियायाम् अस्त्रशस्त्राणि गोलिकाः संचारयन्त्राणि च गृहीतानि। अत्रावधेयं यत् आरक्षिबलस्य उग्रवाद विरोधि अभियाने इयं महती सिद्धिः अस्ति। नवदेहल्यां केन्द्रीय रक्षा मन्त्रिणा राजनाथ सिंहेन एनसीसी कन्यानाम् अपराजिता पारंगला 20-26 इति सुदीर्घ पर्वतारोहण यात्रायाः ध्वजारोहणं विधाय यात्रा समारब्धा। 30-दिवसात्मिका एषा यात्रा हिमाचलस्य स्पीति उपत्यकातः लद्दाखस्य चांगस्थांग प्रदेशं यावत् 200 किलोमीटर विस्तीर्णं सुदुस्तरं पारंगला गिरिपथम् अतिक्रमिष्यति। प्रशासनेन 25-उत्तर-2000तमवर्षस्य राष्ट्रीय क्रीडा पुरस्काराः उद्घोषिताः। भारतस्य मुख्य महिला बैडमिंटन युगलं त्रिशा जॉली तथा पुल्लेला गायत्री गोपीचंदः इत्येताभ्यां सह विविध क्रीडा शाखानां अन्येभ्यः 15 उत्कृष्ट क्रीडकेभ्यः क्रीडा क्षेत्रे तेषां प्रशंसनीय कार्याय अर्जुन पुरस्कारः प्रदास्यते। भारतस्य वरिष्ठ फुटबॉल क्रीडकः यशाहाः अरुमनेयांगमः अर्जुन पुरस्कारेण विभूषितो भविष्यति। इतदतिरिच्य एथलेटिक्स प्रशिक्षकः परवीर सिंहः, मुष्टामुष्टिद्वंद्व प्रशिक्षकः छोलेलाल यादवः, नेहानंद कुमार चौहानः च द्रोणाचार्य पुरस्कारेण सम्मानिताः भविष्यन्ति। तथैव आर्मी पैरालंपिक नोड पुणे संस्था राष्ट्रीय क्रीडा प्रोत्साहन पुरस्कारेण अलंकृता भविष्यति। एफआईएच महिला हॉकी विश्व चषक प्रतिस्पर्धायां भारतीय महिला दलम् अद्य सायं नीदरलैंड्स देशस्य एम्स्टेलवी नगरस्थे वेगनर हॉकी क्रीडांगणे स्वकीय द्वितीय समूह स्तरीय द्वंद्वे दक्षिण अफ्रीका दलेन सह स्पर्धिष्यते। अवधेयास्पदं वर्तते यत् एषा स्पर्धा भारतीय मानक समयानुसारं सायं 6:30 वादने प्रारप्स्यते। इति वार्ताः।